गणानान्त्वां गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ओम् ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उत तैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातपतया नो रुद्रमृडयात् याते रुद्रशिवा तनुरघोरापापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशेः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताङ्कुरुमाहिगुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशार्क्षा वदामसे यथा नः सर्वमिज्जगद यक्ष्मगुंसुमना अचत् अध्यवोचदधिभक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाञ्जम् भजन् सर्वाश्चयातु धान्यः असव्यस्ताम्र अरुण उत बभ्रस्व मङ्गलः ये क्षेमागुम् रुद्र अभितो दिक्षुः श्रितात् सहस्रशो वैशागुम् हेडयेमहे असव्योपसर्पतिनिरग्रेवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिरः नमो अस्तु निरग्रेवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्निजोर्ज याश्वते हस्त इषव पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशते शुधे निषेद्य शल्यानामुखा शिवो न सुमना भव विज्जम् धनुः कपर्दिणो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीहुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायाना तथाय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अधो यलिशुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्रिषीमते पथिनां पतये नमो नमो बभ्रुषाय व्याधिरेन्द्रानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम कृत्स्नभेदाय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाभ्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्थिरानां पतये नमो नमो निषङ्गिण निषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरपे परिचलायारण्यानां पतये नमो नमः शिखाविभ्यो जिघागुंसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च भो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च भो नमो नम आसीनेभ्य शयानेभ्यश्च भो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च भो नमो नमः सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च भो नमः नम आभ्याधिनेभ्यो विविध्यन्तेभ्यश्च भो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च भो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महभ्यः क्षुल्लकेभ्यश्च भो नमो नमो रथिभ्यो रथेभ्यश्च भो नमो नमो रथेभ्यो रथपतिभ्यश्च भो नमो नमः सेनाभ्यस्सेनानिभ्यश्च भो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च भो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्य कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयुभ्यश्वनिभ्यश्च भो नमो नमः श्वभ्यश्वपदिभ्यश्च भो नमः namo bhavaya cha rudraya cha nama sharvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha nama kapardine cha vyuktakeshaya cha nama sahasrakshaya cha shatadhanvane cha namo girishaya cha shibhivishtaya cha namo midushtamaya cha shumate cha namo hraswaya cha vamanaya cha namo brihate cha varshiyase cha namo vriddhaya cha samridhvane cha namo agrayaya cha prathamaya cha nama aashaveta jiraya cha nama shighriyaya cha shibhyaya cha nama urmyaya cha vasvanyaya cha nama shrotasyaya cha dvipyaya cha namo jeshthaya cha kanishthaya cha nama purvajaya cha parajaya cha namo madhyamaya cha bhagalbhaya cha namo jaghanyaya cha budhniyaya cha nama sobhyaya cha pratisaryaya cha namo yamyaya cha kshemyaya cha nama urvajaya cha khalyaya cha nama shlokyaya cha vasanyaya cha namo vanyaya cha kakshaya cha nama shravaya cha pratishravaya cha nama ashushenaya cha shurathaya cha nama shuraya cha vabhindate cha namo varmine cha varuthine cha namo bilmine cha kavachine cha nama shrutaya cha shrutasenaya cha namo dundubhyaya cha hananyaya cha namo drishnave cha pramrishaya cha namo dutaya cha prahitaya cha namo nishangine cha shudhimate cha namastikshne cha vecha yudhine cha nama swajudhaya cha sudhanvane cha nama shatyaya cha patyaya cha nama kaatyaya cha nipyaya cha nama sodhyaya cha sarasyaya cha namo nadhyaya cha vaishantaya cha nama kopyaya cha vatyaya cha namo varshaya cha varshaya cha namo medhyaya cha vidyutyaya cha nama idhriyaya cha tap Vatyaya cha namo vatyaya cha reshmiyaya cha namo vastavyaya cha vastupaya cha Om Hara 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 Om Namah Somaya cha Rudraya cha Namah Tamraya cha Runaya cha Namah Shangaya cha Pashupataye cha nama Ugraya cha Bhimaya cha namo Agre Vadhaya cha Dure Vadhaya cha namo Handre cha Haniyase cha namo Vrikshebhyo Harikeshebhyo Namastaraya nama Shambhave cha Mayobhave cha nama Shankaraya cha Mayaskaraya cha nama Shivaya cha Shivataraya cha nama Stirthyaya cha Kolyaya cha nama Paryaya cha Varyaya cha nama Prataranaya Chottaranaya cha nama Atharyaya cha Ladhyaya cha nama Shashpyaya cha Phenyaya cha nama Srikatyaya cha Prabhahyaya cha nama Irimyaya cha Prapathyaya cha nama Kegumshilaya cha Kshayanaya cha nama Kapardine cha Pulastaye cha namo Goshtaya cha Grilhyaya cha nama Stalpyaya cha Geyaya cha nama Kaatyaya cha Gavarishthaya cha namo Hradayaya cha Nibeshpyaya cha nama Pagumsavyaya cha Rajasyaya cha nama Shushkyaya cha Harit pyaya jana molo pyaya jala pyaya jana ma ur pyaya cha sur myaya jana ma parnyaya cha parna shadhyaya cha namo paguramanaya cha bhignate cha nama akhidate cha prakhidate cha namo vakhirikebhyo devanagam hridayebhyo namo vikshenakebhyo namo vichinvatkebhyo nama anirhatebhyo nama amivatkebhyah द्रापे अंधसस्पदे दरिद्रन्ने ललोहिता एशाम पुरुषाणा मेशाम पशुना माभेर्मा रोमो एशाम किंचना ममत याते रुद्र शिवा तनु शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजे तयानो मृड जीवसे हिमागुम् रुद्राय तवसे कपर्दिने क्षयत्वेराय प्रभरामहे मतिम् यथा नश्यम सद्विवधे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृधि क्षयत्वेराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतो मानो महान्तमुत मानो अर्भकम् मान उक्षन्तमुत मान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तन हे मान आयुषि मानो गोषु मानो अश्वेषुरीर्षः वीरान्मानो रुद्रभामितो वदेर्हविष्वन्तो नमसा विधेमते आरात्ते गोग्न उत पुरुषग्ने क्षयद्वेराय सुन्नमस्मे ते अस्तु रक्षा जनो अधिज देव ब्रूह्यराचन शर्म यच्छद्विबर्हाः सुहिश्रुतम् गर्थ सदंयुवानम् भृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरखायोः अवस्थिरा मघवद्यस्तनुष्वमेढ्वस्तोकाय तनयाय मृणया मेढुष्टमशिवतम शिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विगिरिड विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोन्यभस्मन्निव पन्तु ताः सहस्रानि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृधे सहस्रानि सहस्रशो ये रुद्र अधिभूम्या ते चागुम् सहस्रयो जने वधन्वानि तन्वसे अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधे नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमा चराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जराणीरग्रेवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विपतो जनान् ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति शृकावन्तो निषङ्गिणः य एतावन्तः शभोजागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वदन्वानि तन्वसे नमो रुद्रेभ्यो ये पृथिव्याम् ये अन्तरिक्षे ये दिवे ये शामन्नम् वातो वर्षभिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदेचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृदयम् सुतेजम् विष्मो यश्च नो द्वेष्टितम् भोजम् भेदधामे त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतान् यो रुद्रो अग्नव्यो अप्सु योषधेषु यो रुद्रो विश्व भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुधम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याजस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हियस्विषुसुधन्वायो विश्वस्य क्षयदिभेषजस्य यक्ष्वा महेशो महदाय रुद्रम् नमो भृद्देववसुनन्दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेश यो जगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मजश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे जन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे दोषा च मे सुदृढं च मे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावहान् ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हत्तेनादप्रमोदिनीम् श्रियम् देहेमुपक्वगे श्रेर्वा देवे जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्ते तृप्ताम् तर्पयन्ते पद्मे स्थिताम् पद्मवर्णाम् तामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देव जुष्टामुदाराम् ताम् पद्मिनीमीम् चरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोद बिल्वः तस्य फलानि तपसानुदन्तुमाया नराया च वाख्या अलक्ष्मी उपैतु माम् देवसकः कीर्तिश्च मणिनाथः प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन्नित्यमध्यम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिञ्ज सर्वानिर्नुत मे गृहात् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करिष्ये ईश्वरेकम् सर्वभूताराम् तामिहोपक्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमसीमहे पशूनाम् रूपमन्यश्च मयिश्रेश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् मन्ममालिनीम् आपसृजन्तु सिग्धानी चक्ले तव समे गृहे निज देवे मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करणीम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः आर्द्राम् यःकरणीम् यष्टिम् सुवर्णाम् खेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः ताम् मावह जातवेदो लक्ष्मीमनपकामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान्नेयम् पुरुषानहम् यश्चि प्रयतो भूत्वा जोयादान्यमन्वहम् श्रियम् पञ्चदशब्जम् च श्रीकामश्च सततम् जपेत् पद्मानने पद्मभूरु पद्माके पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षे येन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनधायि महाधने धनम् मेजुषताम् देवीम् सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् यश्चादिकवेरथम् न जानाम् भवति माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् शौर्योधनम् वचो धनमिन्द्रो बृहत्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोऽगम् जपेत् सदा वर्षन्तु देवि भावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधश्च या सा पद्माधनत्ता विपुलगणिदणी पद्मपत्रायताक्षे गम्भीरावर्तनाभिस्तनभरमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रये मणिघनगजितये स्नाभिता हेमकुम्भये नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतनयाम् धीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनिताम् लोकैकदेवाम् गुराम् श्रीमन्मन्तकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् ताम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मी च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीति मुद्रां करैर्वहन्तीं कमलासनस्तां बालार्कगोणिप्रतिभां त्रिनेत्राम्बदेहमम्बां जगदीश्वरीं त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते महालक्ष्मे च विद्महे विष्णुभक्ते च धीमहि तन्नो लक्ष्मी प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति